ब्राह्म्यं पुण्यं महत्यच्च सृष्ट्युत्पादनकारकम् वेदवृक्षोद्भवन् नित्यम् तत्पुण्याहं ब्रुवन्तु नः पुण्याहं भवन्तु ब्रुवन्तु अस्तु पुण्याहं अस्तु पुण्याहं अस्तु पुण्याहं पृथिव्यामुद्रितायान्तु यत्कल्याणं पुराकृतं ऋषिभिः सिद्धगन्धर्वैः तत्कल्याणं ब्रुवन्तु नः कल्याणं भवन्तु ब्रुवन्तु अस्तु कल्याणम् अस्तु कल्याणम् अस्तु कल्याणम् सागरस्य यथा वृद्धिर् महालक्ष्म्यादिभिः कृता सम्पूर्णा सुप्रभावा च तां च ऋद्धिं ब्रुवन्तु नः ऋद्धिकर्माणि भवन्तु ब्रुवन्तु कर्म ऋध्यताम् कर्म ऋध्यताम् कर्म ऋध्यताम् स्वस्तिस्तु या विनाशाख्या पुण्यकल्याणवृत्तिदा विनायकप्रिया नित्यम् तां च स्वस्तिं ब्रुवन्तु नः स्वस्ति भवतु ब्रुवन्तु आयुष्मते स्वस्ति आयुष्मते स्वस्ति आयुष्मते स्वस्ति समुद्रमथनाजाता जगदानन्दकारिका हरिप्रिया च माङ्गल्या तां श्रियं च ब्रुवन्तु नः श्रीरस्तु इति ब्रुवन्तु अस्तु श्रीः अस्तु श्रीः अस्तु श्रीः भो ब्राह्मणाः मह्यं सह कुटुम्बिने महाञ्जनान् नमस्कुर्वाणाय आशीर्वचनम् अपेक्षमाणाय लक्ष्मीप्राप्ति आख्यस्य कर्मणः पुण्याहं भवन्तु ब्रुवन्तु अस्तु पुण्याहं अस्तु पुण्याहं अस्तु पुण्याहं ॐ